भ्यो नमः. गतवर्गे वयं लङ्लकारस्य रूपं दृष्टवन्तः. तत्र उपसर्गसहितक्रियापदानां रूपं कीदृशम् इति अतीतवन्तः. तत्र उपसर्गाः तु द्वाविंशतिः उपसर्गाः सन्ति. यदि कोऽपि उपसर्गः अस्ति धातुमध्ये तत्र लङ्लकारकार्ये नियमः अस्ति. तत् किमस्ति इत्युक्ते तत्र उपसर्गः त्यक्त्वा लङ्लकारं कृत्वा तदनन्तरं पुनः उपसर्गस्य योजनं कृत्वा लङ्लकाररूपं सिद्धं भवति इति. तत्र पश्यामः, तत्र किं कुर्मः, तत्र विलिखति न किं कुर्मः, तत्र अकारः प्रायशः तत्र यत् आसीत् तत्र किम् अस्तु अस्तु तत्र प्रायशः तदेव स्वीकुर्मः तत्र आनयति इति. अस्तु, तत्र केवलं नयति इति क्रियापदस्य लङ्लकाररूपं तत्र गीताञ्जलि भगिनी वदति वा केवलं नयति इति एक प्रथमपुरुषे
लङ्लकार
लङ्लकाररूपं नयति इति क्रियापदस्य
अनयत् अनयताम्
अपि
बहुवचने अनयत् अनयताम् अनयन्
अनयन् इति. इदानीम् आनयति इति अस्ति चेत् किं भवति?
आनयन् इत्युक्ते आनयत् आनयताम् आनयन्.
तत्र किञ्चित् वदति वा भवती किं कृतवती इति? तत्र
अत्र
उपसर्गः कः इति?
अस्तु महोदय, अत्र उपसर्ग आ अस्ति. लङ्लकाररूपम् आदौ अ अस्ति. आ योगः अ इत्युक्ते आ. तदनन्तरम् आनयत् आनयताम् आनयन्
इति. समीचीनं भगिनि. अतः तत्र किं तत्र भवती किं कृतवती? आनयति इति क्रियापदमस्ति. तत्र आ इति उपसर्गः अस्ति. अतः आयोगः नयति इति क्रियापदम् अस्ति इति उपसर्गसहितक्रियापदं. तत्र आयोगः नयति, आ इति त्यजामः. तत्र केवलं नयति इति क्रियापदं भवति. तदनन्तरं नयति इति क्रियापदस्य लङ्लकाररूपम् अस्ति अनयत्. तदनन्तरं पुनः आकारः योजयामः आरम्भे. अतः आयोगः अनयत् तद्भवति आनयत्. तदेव अन्यानि रूपाणि तत्र तत्र अपि तद् सा एव स्थितिः इति कृत्वा आनयत् आनयताम् आनयन् इति भवति. समीचीनं भगिनि. अस्तु, इदानीं तत्र आगच्छति इति तत्र शुभा भगिनि आगच्छति इति तत्र कीदृशरूपं भवति, किमर्थम् इति किञ्चित् वदति वा? गच्छति इति रूपं किं पुनः तदनन्तरम् आगच्छति इति रूपं किम् इति?
आं महोदय, आगच्छति पदे आ इति उपसर्ग अस्ति. प्रथमतया आ इति त्यक्त्वा गच्छति इति क्रियापदस्य लङ्लकाररूपम् अगच्छत् अगच्छताम् अगच्छन् एवं भवति. इदानीम् उपसर्गस्य योजनेन आगच्छत् आगच्छताम् आगच्छन् एतद् एवं भवति
इति भवति. समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र नरेश् महोदय नमस्कारः. तत्र भवान् इदानीं तत्र अनुसरति इति तत्र उपसर्गः कः महोदय? नरेश् महोदय नरेश महोदय अस्ति वा? न श्रूयते महोदय. अस्तु, उषा भगिनी अनुसरति.
आम् महोदय, अनुसरति अनु उपसर्ग अस्ति, सरति क्रियापदं, लङ्लकाररूपम् अस्ति चेत् असर असरताम् असरन् अस्ति. अनन्तरम् आ योगः अनुसरत् आनुसरत् आनुसरताम्.
तत्र तत्र उकारः अकारः अस्ति चेत् किं भवति? इति रूपं. समीचीनं भगिनि, समीचीनम्. अत्र अनु इति अस्ति, तदनन्तरम् असरत् इति अस्ति, अतः अनुयोगः असरत् अन्वसरत्. सा एव स्थितिः अन्येषु रूपेषु अपि. अतः तत्र अन्वसरत् अन्वसरताम् अन्वसरन् इति तादृशरूपं भवति. अस्तु, समीचीनं. तत्र शोभा भगिनी, अनुवदति इति अस्ति चेत् तत्र किं भवति?
आं महोदय, अनुवदति वदति इत्यस्य लङ्लकाररूपम् अस्ति. अवदत् अवदत् अवदताम् अवदन् इति. तत्र अनुयोगः अवदत् अन्ववदत् अपि अन्ववदताम् अन्ववदन् इति भवति.
समीचीनं भगिनि, समीचीनम्. अस्तु, इदानीं तत्र रघुपति महोदय वदति वा?
आम् महोदय.
तत्र इदानीं तत्र विलिखति इति
लिखति विलिखति
विहरति इति विहरति
विहरति. अस्तु, अहरत् अहरत् अहरताम् अहरन् भवति. वि वि उपसर्ग अ व्या भवति. वि योग अ इ सारी वि योग अ व्या भवति. येन सन्धि विहरत् विहरताम् विहरन्
इति अन्तिमरूपम्. समीचीनम्. अस्तु अस्तु, तर्हि एतावत् कः न उक्तवान् उक्तवती? अरुणा भगिनी, भवती एतत् करोति वा? तत्र विस्मरति इति स्मरति विस्मरति
स्मरति स्मरति लङ्लकाररूपः अविस्मरत् अविस्मरताम् अविस्मरन्
तत्र तत्र उपसर्गः अस्ति वा विस्मरति इति क्रियापदे? उपसर्ग इत्युक्ते तत्र
प्रथमं लङ्लकाररूपं वदामि, तदनन्तरं वि योग अस्मरत् विस्मरत् विस्मरत्
इति. इदानीं समीचीनं भगिनि, समीचीनं. स्मरति इति तस्य लङ्लकाररूपम् अस्मरत्, तदनन्तरं वि योगः अस्मरत् व्यस्मरत् इति. समीचीनं भगिनि. अस्तु, समीचीनम्. अस्तु, श्रीप्रिया भगिनी आसीत्. अस्तु अस्तु, नरेश महोदय अस्ति वा? महोदय न श्रूयते, सम्यक्तया न श्रूयते महोदय. न श्रूयते महोदय. अस्तु, इदानीं श्रूयते. अस्तु, तत्र किं विलिखति इति करोति वा तस्य रूपं? विलिखति विलिखति अस्तु, न श्रूयते महोदय. श्रीप्रिया भगिनी वदति वा?
नमस्कारः महोदय.
नमस्कारः भगिनि, तत्र लङ्लकररूपं कर्तुम् इच्छति वा? तत्र विलिखति इति क्रियापदं तावदेव, केवलं प्रथमपुरुषे व्यलिखत् इति, वि योगः अलिखत् इति. समीचीनं भगिनि, अस्तु धन्यवादः. अस्तु, इदानीं तत्र गृहपाठः किञ्चित् आसीत् इति मन्ये, तत् कृत्वा तत्र अग्रे गच्छामः. तत्र पुटसङ्ख्या 95 मध्ये इति मन्ये, तत्र
महोदय ध्वनिः अस्ति.
ध्वनिः अस्ति वा?
श्रीप्रियायाः म्यूट् मध्ये. अस्तु अस्तु,
इदानीं नास्ति. अस्तु, अस्तु, अस्तु. तर्हि तत्र सर्वे अवगच्छन्ति इति मन्ये कार्यं कीदृशम् इति. तत्र एकवारं तत्र लङ् रूपाणि कानि यानि सन्ति तद् एकवारं परिशीलयामः, तत्र सम्यक्तया मनसि भवतु इति कृत्वा. तदनन्तरं वयम् अत्र गृहपाठं तत्र द्वितीय अभ्यासः पुटसङ्ख्या 95 मध्ये कुर्मः. तत्र 96 पुटे कोष्टकम् अस्ति, तत्र केवलं प्रथमस्तम्भः द्वितीयस्तम्भः इदानीं पश्यामः. तत्र प्रथमस्तम्भः द्वितीयस्तम्भः, तत्र एकमेकं दृष्ट्वा किं कार्यं किं रूपम् इति दृष्ट्वा तत्र प्रथमपुरुषे वा द्वितीयपुरुषे वा मध्यमपुरुषे वा उत्तमपुरुषे वा इति रूपं रूपाणि वदन्तु. अस्तु, तर्हि तत्र गीताञ्जलि भगिनि, तत्र कोष्टके आगच्छति इति अस्ति, प्रथमस्तम्भः द्वितीयस्तम्भः, केवलं तद् एव लङ् लकररूपं लङ् रूपं पश्यामः. आगतवान् इति इदानीं मास्तु. तत्र कार्यं किम्, अपि मध्यमपुरुषे किम् रूपं किम् इति वदतु भगिनि. तत्र
आं महोदय, आगच्छति लङ् लङ् रूपाणि आ योगः अगच्छत् आगच्छत्. मध्यमपुरुषरूपं
किम् अस्ति?
मध्यम त्वं त्वं न महोदय, त्वं त्वम् अग त्वम् अगच्छत् अगच्छ आयोगः अगच्छ इत्युक्ते अगच्छ इत्युक्ते त्वम् आगच्छ
आगच्छः
त्वम् आगच्छः युवाम् आगच्छतं यूयम् आगच्छत.
समीचीनं भगिनि. अस्तु, शोभा भगिनि, आनयति इति तत्र उत्तमपुरुषे तत्र कार्यं किम्? अपि उत्तमपुरुषरूपम्
अत्र आनयति पदे आयोगः अनयत् इति अस्ति, आनयत् इति भवति. तत्र आनयत् उत्तमपुरुषे वा?
उत्तमपुरुषे.
आनयम् आनयाव आनयाम
आनयाम इति. समीचीनं. इदानीं तत्र लङ्लकररूपं रूपमध्ये तत्र पश्यन्तु, तत्र आगच्छति अपि आनयति, आ एव उपसर्गः अस्ति, अपि गच्छति इति तस्य लङ्लकररूपे आरम्भे अकारः अस्ति, नयति इति क्रियापदस्य लङ्लकररूपे अपि अकारः अस्ति आरम्भे, अतः तत्र आयोगः अकारः अस्ति चेत् तद् आकारः एव. तत्र सन्धिः अस्ति, तत्र आयोगः अकारः आकारः इति सवर्णदीर्घसन्धिः इति नाम अस्ति, किन्तु इदानीं तस्य किमपि महत्त्वपूर्णं नास्ति, किन्तु सन्धिः अत्र अस्ति इति चिन्तयन्तु. अस्तु, तत्र आयोगः अकारः आकारः इति. अस्तु, समीचीनं. तदेव तत्र आगच्छति अपि आनयति मध्ये. तादृश अन्यानि क्रियापदानि कोऽपि वदति वा? तादृश अकारः अपि पुनः आकारः कुत्र अन्यत् कोऽपि उदाहरणं तत्र अकारः योगः आकारः कुत्र अन्यत् कुत्र भवति, अकारः उपसर्ग आकारः उपसर्ग उपसर्ग आकार उपसर्गसहित क्रियापदं कोऽपि वक्तुं वदति वा?
अत्र दत्तं महोदय, अवगच्छति
तत्र केवलम् इति
आदत्ते
इति अस्ति. हा अव अपि समीचीनमेव, तत्रापि आकारः एव भवति. हा तदपि समीचीनं, तदपि हा समीचीनं भगिनि, तदपि एकवारं तद् तत्र अवयोगः अगच्छत् इति अधोभागे अस्ति. तत्रापि अव इति तस्य अन्तिमवर्णः अस्ति अकारः, अव अपि अकारः, तदनन्तरम् अगच्छत्. अत्र तत्रापि आगच्छत् तत्र अकारः योगः अकारः आकारः इति भवति, अतः अवागच्छत् इति भवति. अपि अवयोगः अलोकत अवालोकत इति अस्ति, आ योगः अदत अदत्त आदत्त इति भवति. हा उपयोगः अजायत उपाजायत इति. हा अस्तु, तर्हि तत्र सवर्णदीर्घसन्धि इति इदानीं तत्र मनसि स्थापितं भवति इति मन्ये. अस्तु, इदानीम् उषा भगिनी अग्रिमम्.
प्रति वदति, प्रति योगः किं वदनीयं
महोदय? हा अस्तु, इदानीं मध्यमपुरुष वदतु भगिनि.
प्रति वदति, प्रतियोगः अवदत् प्रत्यवदत्. मध्यमपुरुषे अस्ति अवद् अवद अवद अवदतः अवदतम् अवदत् प्रत्यवदत्.
इदानीं प्रतियोगः अवदः किं भवति?
प्रतियोगः अवदः प्रति अवदः.
तत्रैव दत्तमस्ति खलु भगिनि, तत्र प्रतियोगः अवदत् किं भवत् किं भवति?
प्रत्यवदत् प्रत्यवदः
इति भवति. समीचीनं भगिनि, तत्र
ईयोगः प्रति प्रति
पदे अन्तिमवर्णः अस्ति
इकारः. अवदत् इति पदे आदौ अस्ति अकारः, ईयोगः अकारः, यकारः यण्सन्धेः
भवति. अस्ति, समीचीनं भगिनि. अस्तु, तादृशरूपम् अन्यत्र कुत्र पश्यति? तत्र
वि लिखति नो,
तत्र अपि अस्ति. अपि
परिहरति.
समीचीनम्. अपि
न्युङ्गते.
हा न्युङ्क्त, सरि, समीचीनम्. अस्तु,
निवर्तते. निवर्तते
हा तत्रापि न्यवर्तत इति. समीचीनं भगिनि, समीचीनं भगिनि. अस्तु, हा शीतल भगिनी नमस्कारः, वंशीसुधा भगिनी नमस्कारः. मधुसूदन महोदय, अस्तु अस्तु, समीचीनं महोदय, नमस्कारः नमस्कारः. अस्तु, हा अस्तु, इदानीं तत्र
नमस्कारः महोदय.
शीतल भगिनी नमस्कारः. हा शीतल भगिनी नमस्कारः. अस्तु, इदानीं शुभा भगिनी, तत्र प्रतीति हा अनुकरोति इति, हा तत्र उत्तमपुरुषे किम् अस्ति इति वदतु भगिनि.
आं महोदय, अनु योगः अकरोत् अन्वकरोत्. उत्तमपुरुषः महोदय, अन्वकरोत् अन्वकरोम् अन्वकरोव अहम्
इदानीं मास्तु भगिनि. अस्तु अस्तु, अग्रे पश्यामः. तत्र तत्र व्यलिकत् इति कृतवन्तः. अस्तु, हा व्यलिकत् एव, व्यलिकत् तत्र उत्तमपुरुषे रूपं किम् इति वदतु भगिनि.
आं महोदय, वियोजनेन वियोगः अलिखत् व्यलिखत् इति भवति व्यलिकं व्यलिखाव व्यलिखाम
इति. समीचीनम् अस्तु, समीचीनं भगिनि. अस्तु, तत्र पुनः रघुपतिमहोदय तत्र अवगच्छति, तत्र मध्यमपुरुषे किं भवति? रघुपतिमहोदय.
हा महोदय, क्षम्यताम्. अवगच्छति, अस्तु, अवगच्छति. अवायोग अगच्छः, अवागच्छः, अवागच्छतम्, अवागच्छत इति.
अवागच्छत्, समीचीनं महोदय. अस्तु, श्रीप्रिया भगिनी, इदानीं तत्र अवलोकत इति, तत्र उत्तमपुरुषे किं रूपम्? इदानीं तत्र प्रथमपुरुष एव करोतु. इदानीं किमर्थं चेत् तत्र अवलोकते इति आत्मनेपदी धातुः अस्ति, तत् वयं तस्य अभ्यासं न कृतवन्तः, अतः एकवारं तदपि कुर्मः.
अवयोगः अलोकत, अवालोकत, अवालोकेताम्, अवालोकन्त.
अवालोकन्त, समीचीनं भगिनि. अस्तु, तत्र वंशीसुधा भगिनि, तत्र अवालोकते, अवलोकते इति तत्र मध्यमपुरुषरूपं लङ्लकारे किम् अस्ति वदति वा भगिनि?
आं महोदय, अवायोगः अलोकत् मध्यमपुरुषे अस्ति. अलोकः, अलोकः इति भवति महोदय?
न न, एतत् आत्मनेपदी धातुः अस्ति भगिनि, अतः पुटसङ्ख्या 82-83 पश्यतु तत्र.
ओ, अवलोक, क्षम्यतां महोदय. अवलोकते, अवलोक, आं महोदय, क्षम्यतां, किञ्चित्
प्रथमतया तत्र आलोकत इति अस्ति.
मध्यमपुरुषे,
मध्यमपुरुषे केवलं लोकते इति, तस्य रूपाणि एकवारं वदतु, वदतु.
आं महोदय, लोकते अलोक, अलोकथाः इति भवति महोदय, अलोकथाः. अवयोगः अलोकथाः, अवालोकथाः, अवालोकेथाम्, अवालोकध्वम्.
अवालोकध्वं, समीचीनं भगिनि, समीचीनं. शीतल भगिनि, इदानीम् अवलोकते इति तत्र लङ्लकाररूपम् उत्तमपुरुषे, पेज् 83 दृष्ट्वा वदतु. तत्र अलोक लोकते इति अस्ति चेत्, लोकते इति पदस्य, क्रियापदस्य लङ्लकररूपम् उत्तमपुरुषे किं भवति?
उत्तमपुरुषे अवालोकते, अवालोक, अवालोका वहि, अवालोकामहि.
एकवचने किं भवति?
अवालोकते.
तत्र भाष धातु किं भवति? अभाषे इति अस्ति. लोकते इति किं भवति? अतः
अवालोके, अवालोके,
अवालोके,
अवालोका वहि, अवालोकामहि.
समीचीनं भगिनि, अस्तु, समीचीनं. अस्तु, मधुसूदन महोदय, तत्र उपजायत, तत्र उपजायते इति तत्र लङ्लकरूपम् उपाजायत इति दत्तमस्ति, पुटसङ्ख्या 96, तत्र कोष्टकमस्ति, प्रथमस्तम्भः, द्वितीयस्तम्भः, तत्र उपजायते इति अस्ति. उपयोगः अजायत, उपाजायत इति लङ्लकरूपम् अस्ति. तत्र मध्यमपुरुषे, प्रथमपुरुषे एव रूपाणि वदन्तु महोदय, किं भवति इति.
उपजायत, उपाजायत, उपाजायतम्,
तत्र जायते इति, जायते इति तस्य लङ्लकरूपं किं भवति? अजायत,
अजायत,
एकवचने पुटसङ्ख्या 83 दृष्ट्वा वदतु महोदय. तत्र भाषिति दातु इदानीम् आत्मनेपदे दातु अस्ति एतत्.
जायते उपजायत
उपाजायत
उपाजायत उपा उपा उपाजायताम्
उपाजायन्त इति समीचीनम् अस्तु. श्रीप्रिया भगिनी तत्र उपजायते इति मध्यमपुरुषे किं भवति? अस्ति वा श्रीप्रिया भगिनी? अस्तु रघुपति महोदय.
आम् महोदय. किं महोदय इदानीम्
उपजायते लङ्लकररूपं मध्यमपुरुषः
उपजायते उपयोग मध्यमपुरुषः उपयोग अजायताः उपजायताः उपजायेताम् उपजायध्वम् सारि उपाजायध्वम् उपाजायेताम् उपाजायध्वम्.
समीचीनं महोदय. अस्तु अस्तु गीताञ्जलि भगिनी इदानीं तत्र उपजायते इति लङ्लकरूपम् उत्तमपुरुषे.
आं महोदय. उपाजाये उपाजायावहि उपाजायामहि.
समीचीनं. इदानीं शोभा भगिनी अग्रिमं प्रपद्यते तत्र द्वितीयस्तम्भे किं दत्तमस्ति? प्रयोगः अपद्यत प्रापद्यत एतदपि आत्मनिपदि दातु रूपाणि वदतु भगिनि.
आं महोदय. प्रापद्यत प्रापद्यत प्रापद्येतां प्रापद्यन्त प्रथमपुरुषे.
समीचीनं भगिनि. अस्तु उषा भगिनि तदेव मध्यमपुरुषे किं भवति?
प्रापद्यथाः प्रापद्येतां प्रापद्यद्वम्.
समीचीनं. अरुणा भगिनि इदानीं उत्तमपुरुषे किं भवति?
प्रापद्ये प्रापद्यावहि प्रापद्यामहि.
समीचीनं. इदानीं शुभा भगिनी तत्र निवर्तते मध्यमपुरुषे किं भवति?
प्रथमपुरुषे वा महोदय?
मध्यमपुरुषे.
मध्यमपुरुषे न्यवर्तथाः न्यवर्तेथां न्यवर्तध्वम्.
अस्ति समीचीनं भगिनि. अस्तु अस्तु तर्हि तत्र वयं तत्र उपसर्गसहितक्रियापदानां सामान्यलङ्लकररूपं दृष्टवन्तः. तत्र उपसर्ग अस्ति चेत् अपि नास्ति चेदपि लङ्लकररूपं कर्तुं शक्नुमः. अस्तु तर्हि इदानीं तत्र 95 पुटे तत्र द्वितीय अभ्यासः तद् कुर्मः. तत्र किं किम् एतावत् किं किं जानीमः अवगतवन्तः वयम्? इकारः अपि अकारः अस्ति चेत् यकारः भवति, उकारः अपि अकारः अस्ति चेत् वकारः भवति इति. अस्तु तद् तद् उपयुज्य अत्र रूपं कर्तुं शक्नुमः इति मन्ये. अस्तु तर्हि तत्र शोभा भगिनी आरम्भं करोति वा द्वितीय अभ्यासः?
आं महोदय. तत्र यतोदाहरणम् उपसर्गसहितवाक्यानि रचयत. यथा छात्रः गृहम् आगच्छति तत्र आ उपसर्गयोगः गम् धातुः दत्तमस्ति. तत्र तानि उपयुज्य आगच्छति इति कृतं. भक्तः देवं तत्र प्रा उपसर्गः योगः नम् धातुः. भक्तः देवं तत्र प्रायोगः नम् प्रणमति इति भवति महोदय.
प्रणमति इति भवति. अस्तु तदेव इदानीं तस्य केवलं तद् रूपं लङ्लकारे किं भवति?
प्रणमति नमति अनमत् प्रणमत्
प्राणमत्
नमत्
अनमत् खलु
अनमत्
क्षमतां प्राणमत्
तावदेव भक्तः देवं
प्राणमत्
समीचीनं भगिनि. हा अस्तु अग्रे तत्र वंशीसुता भगिनी द्वितीय अभ्यासः द्वितीयं तत्र द्वितीयवाक्यं वंशीसुता भगिनी अस्ति वा अस्तु शीतल भगिनी 95 पुटे द्वितीय अभ्यासे द्वितीयवाक्यं
महोदय भगवान् युगे युगे संयोग
भू धातोः रूपं किं भवति क्रियापदं अतः संयोगः भवति किं भवति सम्भवति हा सम्भवति इति
युगे युगे सम्भवत्
युगे युगे सम्भवति हा समीचीनम् इदानीं लङ्लकाररूपं सम्भवति इति शीतल भगिनि भवति इति क्रियापदस्य लङ्लकाररूपं किम् अस्ति
अभवत्
हा इदानीं संयोगः अभवत्
समभवत्
समीचीनं भगिनि अस्तु हा अग्रे
तत्र
अस्तु भगिनि अस्तु इदानीं तृतीयवाक्यं भगिनि
आं महोदय सैनिकाः शत्रून् संयोगः हरति संहरति इति रूपं
सैनिकाः इति
सैनिकाः संहरन्ति
संहरन्ति हा इति इदानीं हरन्ति इति संहरन्ति इति तस्य
संयोगः आहरन्त् संहरन्त् इति भवति महोदय समहरन्त्
न न न इदानीं हरति इति तस्य रूपम् अहरत् इति अस्ति इदानीं द्विवचने किं
द्विवचने लङ्लकाररूपं महोदय ओ लङ्लकाररूपं महोदय अथवा
इदानीं लङ्लकाररूपं
ओ क्षम्यता महोदय तत्र
तत्र अभ्यासे केवलं लट्लकाररूपमेव अपेक्षितं भगिनि किन्तु लङ्लकाररूपमपि जानीमः खलु लङ्लकाररूपमपि कुर्मः इति आशयः
तत्र परस्मैपदीधातु भवति यतः अहरन् अहरताम् अहरन् महोदय
हा इदानीं तत्र संयोगः अहरन्
समहरन्
समहरन् सैनिकाः
समहरन् सैनिकाः शत्रून् समहरन्
हा इति भवति समीचीनं
भवति
चिन्ता मास्तु हा मधुसूदन महोदय अग्रिमम्
आं महोदय माता पुत्रान् परियोगः परिपालयत्
परिपालयति
पालयति लङ् लङ्लकाररूपं पालयति अपालयत्
अपालयत् हा इदानीं पुनः परि इति उपयोगेन
पर्यापकारः
अस्ति चेत् किं भवति
पर्यपालयत्
पर्यपालयन् हा इदानीं वाक्यं माता
माता पुत्रान् पर्यपालन् पर्यपालयत्
माता इति एकवचने अस्ति खलु समीचीनम् अस्तु श्रीप्रिया भगिनी अस्ति वा
अस्मि अस्मि महोदय
हा अस्तु इदानीम् अग्रिमं तत्र छात्राः इति अस्ति वाक्यं
छात्राः गुरून् परियोगः पृच्छ लट्लकारे अस्ति परियोगः पृच्छति पृच्छन्ति लङ्लकाररूपम् अस्ति परियोगः अपृच्छन्
पर्यपृच्छन्
छात्राः गुरु पर्यपृच्छन्
हा समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे रघुपतिमहोदय अग्रिमवाक्यम्
आं महोदय कविः काव्यं कविः काव्यं विलिखति कविः काव्यं व्यलिखत्
व्यलिखत् समीचीनं हा कविः काव्यं व्यलिखत् हा समीचीनं गीताञ्जलि भगिनि अग्रे
दुर्योधनः द्रौपदीम् उपहसति दुर्योधनः द्रौपदीम् उपाहसत्
उपाहसत् समीचीनं भगिनि अहसत् उपयोगः अहसत् उपाहसत् उपाहसत् समीचीनं हा शोभा भगिनि अग्रे
महोदय महोदय अत्र हसति अकर्मकः अस्ति तत् परन्तु तत् यदा उपसर्गः भवति तदा सर्वत्र सकर्मकः भवति इति वा द्रौपदीं
तत्र
द्रौपदीम् उप दुर्योधनः हसति दुर्योधनः द्रौपदीम् उपहसति इति भवति
अत्र सकर्मकरूपम् अस्ति महोदय सत्यं किन्तु
सर्वदा न भवति वा
सर्वत्र नास्ति इति किमर्थम् तत्र उदाहरणं पश्यामः तत्र उत्तिष्ठतु इति वदामः खलु तिष्ठतु तत्र उपसर्गः अस्ति खलु तत्र
तिष्ठति
उपविशति इति तत्र उपसर्गः अस्ति खलु
अस्तु अस्तु तत्र अस्ति
खलु तत्र
स एव
अतः मम चिन्तनम् अस्ति तत्र सर्वत्र नास्ति इति किन्तु यत् भवान् दृष्टवान् अत्र तत्तु समीचीनं समीचीन अर्थः अस्ति क्रियापद उपसर्गरहितधातु अकर्मकः अस्ति चेदपि उपसर्गस्य योजनेन सकर्मक भवितुम् अर्हति
भिन्नः
अपि भवति भिन्नः अपि
भवति
सकर्मक अपि भवितुम् अर्हति इति प्रायशः तत्र एतत् अवगन्तुं शक्नुमः इति मन्ये अत्र अर्थभेदः तु भवति तत्र परिहसति अपि केवलं हसति तत्र अर्थभेदः तु अस्ति अस्ति तर्हि तत्र गीताञ्जलि भगिनी उक्तवती शोभा भगिनी भवती
न महोदय अधुना
भवती इदानीं वदतु उषा भगिनी एकनिमिष भगिनी शोभा भगिनी वदतु तदनन्तरं भवती वदति वा
कर्णः धनुर्विद्यां तत्र वियोगः स्म इति अस्ति स्मरति स्मरति विस्म कर्णः धनुर्विद्यां विस्मरति लङ्लकारे स्मरति अस्मरत् इति भवति कर्णः धनुर्विद्याम् अस्मरत्
इदानीं वियोगः
वियोगः अस्मरत् व्यस्मरत्
कर्णः धनुर्विद्यां
व्यस्मरत्
व्यस्मरत्
कर्णः धनुर्विद्यां व्यस्मरत्
हा समीचीनं भगिनि हा अस्तु इदानीं उषा भगिनि
साधुः धर्मम् अनुसरति सरति लट्लकार अस्ति असरत् लङ्लकाररूपम् अस्ति अनुयोगः सृ उकारयोगः अकारः वकारः भवति अतः अन्वसरत्
हा समीचीनं भगिनि साधुः धर्मम् अन्वसरत् समीचीनं भगिनि हा अस्तु इदानीम् अरुणा भगिनि
आं महोदय
कृष्णः
सर्वान् उप योगः कृ उपकरोति लङ्लकार अकरोत् उप अकरोत् उपाकरोत् सर्वान् उपाकरोत्।
हा समीचीनं भगिनि। हा इदानीं शुभा भगिनि।
गङ्गा हिमालयात् नियोगः श्रू इति धातुः अस्ति, निस्सरति इति भवति वा महोदय?
सत्यं भगिनि।
लङ्लकाररूपे गङ्गा हिमालयात् न्यसरत्
इति, तत्र सकारस्य द्वित्वम् अस्ति वा इति न जानीये, किन्तु
महोदय तत्र अहं दृष्टवती नी नन्तरम् उप अनुस्वारः आसीत् महोदय, विसर्गः, क्षम्यतां, नी विसर्गः निःसरति इति दत्तमस्ति
इति वा?
आं महोदय, श्रू श्रू धातोः सरति नि उपसर्ग पूर्वक अस्ति चेत् निःसरति इति अहं दृष्टवती, सम्यक् अस्ति वा न इति न जानामि।
तत्र विसर्ग अस्ति चेत् रूपद्वयं भवति महोदय, विसर्ग अस्ति रूपद्वयं, निःसरति अत्र निःसरति इति वा शरीति इति, परन्तु अत्र नि एव
अस्तु
वा इति अस्ति शरीपरे,
वा इति किमर्थं महोदय?
वा शरीति सूत्रमस्ति, यथा विसर्ग अस्ति वा,
अतः तत्र सकारस्य द्वित्वम् अथवा उपसर्गः इति
अथवा विसर्ग, परन्तु अत्र उपसर्ग न दत्तमस्ति महोदय।
अतः एव मम चिन्तनम्, अहं चिन्तितवान् तत्र मया श्रुतम् इति निःसरति इति सकारस्य द्वित्वं मया श्रुतम् इति कृत्वा अहं चिन्तितवान्, किन्तु
महोदय उपसर्ग निस् रूपमेव उपसर्गरूपम्।
किन्तु तत्र रघुपतिमहोदय वदति तत्र रूपद्वयं भवितुम् अर्हति, एकमस्ति उपसर्गरहितसहितरूपम् अथवा उपसर्ग नास्ति मास्तु इति चिन्तयामश्चेत् सकारस्य द्वित्वम् इति।
महोदय उपसर्ग नास्ति चेत्, क्षम्यता भगिनि, उपसर्ग नास्ति चेत् द्वित्वं भवति वा महोदय?
विसर्गः, तत्र नियमः कः इति इदानीं न स्मरामि भगिनि, तत्र यद् महोदय उक्तवान् तत् प्रायशः सत्यं, तत्र द्वित्वम् इति मया श्रुतं, तत्र निःसरति इति
उपसर्ग, विसर्ग नास्ति चेत् न भवति किल, उपसर्ग नास्ति चेत् कुत्रापि न भवति एव
न महोदय, रघुपतिमहोदय अहं दृष्टवती, भवान् एव मम प्रश्नः, श्रू इति धातोः द्वे रूपा रूपौ अस्ति वा, रूपौ सन्ति, सरति
रूपं रूपे स्तः
रूपे, धन्यवादः, स्मरति सरति अपि सत्सरति इति किमपि आसीत्, नी उपसर्ग योजयतु,
नी उपसर्ग निःसरति
निःसरति
निःसरति अथवा निःसरति इति
तत्र
महोदय उपसर्ग निर् सम्भवति वा निर्?
हा प्रथमं तत्र एव भवति, प्रथमं तु निःसरति तत्र रकारः भवति, नन्तरं विसर्गः भवति इति भवति
सूत्रे, तत्र उपसर्गद्वयमस्ति खलु, तत्र नि उपसर्ग अस्ति अपि निस् अपि अति अस्ति
अस्ति वा,
त्रीणि समानार्थकः महोदय,
निराकरोति इति अस्ति खलु, अस्तु अस्तु महोदय, नि
तत्तु निर् अस्ति,
निर् अस्ति वा, निर्
निस् अपि अस्ति, निस् योगः सरति तु तत्र द्वित्वं भवति, किन्तु इदानीं केवलं निसरति इति स्वीकुर्मः
महोदय, 93 पेज् मध्ये निस् सरति इति अस्ति महोदय, 93 पेज् मध्ये निस् सरति इति अस्ति,
नैन्टि त्री पेज् मध्ये
अष्टमी
उपरि
निस्सरति
अष्टमपङ्क्त्यां तत्र निस् इति उपसर्गः अस्ति न भगिनि अत्र अत्र नि इति उपसर्गः
उपसर्गः
अत्र मुद्रन्दोषः भवति वा महोदय
निस्सरति तत्र सकारस्य द्वित्वं निस् इति अस्ति चेत् सकारस्य द्वित्वं भवति खलु अस्तु द्रष्टव्यम् अस्ति इदानीं न जानामि किन्तु
महोदय तत्र परं प्रथमं किं भवति निस् अस्ति तत् पदमस्ति सकारस्य रेफा भवति अनन्तरं करवासानयोः रो रकारस्य विसर्जनीयः भवति निः भवति अतः निः सरति निःसरति अपि च निःसरति इति निः सरति इति रूपद्वयं वा शरी इति सूत्रेण अहं पठितवान् अस्ति किञ्चित्
इदानीं यदि अहं सम्यक्तया अवगतवान्
निःसरति एव इति अत्र
निस् उपसर्ग अस्ति चेत् भवति किन्तु अत्र केवलं नि इति एव दत्तमस्ति उपसर्गः
आमाम्
अतः निसरति इति चिन्तयामि निसरति इति रूपमस्ति वा निसरति इति कोऽपि दृष्ट्वा वदतु
तदेव वयं पठितवन्तः सर्वत्रापि निसरति एव भवति निसरति नास्ति कुत्रापि न दृष्टवान्
प्रायशः मुद्रणदोषः अस्ति तत्र निस्
विसर्ग अपि न दृष्टवान् विसर्ग अपि यद्यपि अस्ति परन्तु कुत्रापि न दृष्टवान् निः सरति सूत्रं परन्तु अस्ति
शुभा भगिनी अतः भवत्याः योजनम् अस्ति तत्र पुटसङ्ख्या 95 मध्ये नियोगः सृ इति दत्तमस्ति तत्र मुद्रणदोषः अस्ति इति वा
आं महोदय अहम् उपसर्गस्य विषये न जानामि
भवती अतः चिन्तयति तत्र निस् योगः सृ इति भवितुम् अर्हति तत्र इति
भवती निस्सरति इति लिखितवती
अस्तु भगिनि निस्सरति इति अस्तु समीचीनं इदानीं तत्र रूपं लङ्लकारे किम् आसीत् गङ्गा हिमालयात्
हिमालयात् निस् असरत् निस्यसरत्
अस्तु निस्सरति निस् इति अस्ति इति कृत्वा अस्तु अस्तु निस्
निस्यसरत् या
तत्र किमर्थं निससरत्
निससरत् वा
इति द्रष्टव्यमस्ति निस् अस्ति चेत् तदनन्तरम् असरत् इति भवति खलु अतः निससरत् इति एव भवति केवलं नि अस्ति चेत् तत्र यकारः आगच्छति किन्तु एकवारं दृष्ट्वा तत्र द्रष्टव्यमस्ति भगिनि पुनः दृष्ट्वा एकवारं पश्यामः अस्तु समीचीनम् अत्र अग्रे गच्छामः तत्र
महोदय अत्र यदा आ भवति तत्र अवाशरीत्या प्रसङ्गः न भवति किल शर्वर्णः अस्ति चेत् एव भवति निरसरत् भवति निरसरत् इति भवति निस् असरत् इति अस्ति महोदय निस् असरत् अस्ति सकारस्य रेफा भवति निरसरत् इति भवति
इति वा
इति सरत् शरि इति शरी शर्परे शर् इत्युक्ते शससर् तदेव इदानीम् अकारः भवति किल यदा इकारयुक्त अस्ति विसर्गः अस्ति तत्र निर् एव अवशिष्यते निरसरत् इति भवति
अस्तु महोदय धन्यवादः भगिनी अस्तु उत्तरं प्राप्तम् इदानीं निरसरत् इति
अहं सम्यक् न जानामि परन्तु एतत्
समीचीनं
दृष्ट्वा तत्र सूत्रं दृष्ट्वा अहं वदन् अस्मि
निससरत् तु तत्र तत् शृण्मः तत् समीचीनं नास्ति इति एव योचनम् अस्ति अतः
असरत् महोदय
निरसरत् प्रायशः समीचीनं
निरसरत्
महोदय एक एकः प्रश्नः अत्र नी इति दत्तमस्ति चेत् निर् इति भवति इति कथं जानीमः? नी अपि अस्ति उपसर्गः, नी अनन्तरं स्रु इति धातु अस्ति चेत् निर्भवति वा?
न न न, तत्र प्रायशः मुद्रणदोषः अत्र अस्ति इति कृत्वा
तदेव मुद्रणं
करोति.
यदि
अस्तु
तत्र
अस्ति वा शब्दं पदं निसरति
निवारयति इति अस्ति वा महोदय?
हा, निवारयति अस्ति, वारयति, निवारयति, नि अस्ति तत्र,
नि अस्ति,
हा, निर निवारय, नि अस्ति
तत्र. नीति उपसर्गः अस्ति, निस् इति अस्ति, अपि निर् इति अपि अस्ति.
नि अपि निर् महोदय भिन्न उपसर्गः.
हा हा, अतः सत्यं भगिनि, नि एकं, द्वितीयं निर्.
अत्र 93 मध्ये द्वे
निर्माणं, निर्माणम् अस्ति किल, अतः निर् भवति निर्माणम्.
अस्तु, द्वयमस्ति भगिनि तत्र, एकमेव उपसर्ग इति न,
अत्र उपसर्गत्रयम् अस्ति, नि, निर्, निस्. अस्तु, धन्यवादः.
पुटसङ्ख्या 93 मध्ये दत्तमस्ति खलु तत्र.
अस्तु अस्तु,
तत्र नि, निर् अपि निस् इति. अस्तु अस्तु, अग्रे गच्छामः तर्हि. तत्र कुत्र गङ्गा इति वाक्यं कृतमस्ति इदानीं तत्र. हा, वंशीसुधा भगिनी अग्रे.
सैनिकाः, सैनिकाः आयुधानि, संयोगः ग्रह धातुः अस्ति, सङ्गृह्णाति, सङ्गृह बहुवचनरूपमस्ति सङ्गृह्णन्ति, लङ्लकाररूपमस्ति
सङ्गृह्णाति, तद् जानीमः वा?
गृह्णाति, गृह्णन्ति,
लङ्लकररूपम्
गृहन्ति भवति वा महोदय?
न स्मरामि भगिनि, तत्र सामान्यरूपम् इदानीं पश्यामः
वा?
केवलं लट् लकररूपं तदेव अपेक्षितमस्ति, तद् कुर्मः अत्र. चिन्ता मास्तु. अग्रिमवाक्यं शीतल् भगिनि. युधिष्ठिरः,
युधिष्ठिरः गुरोः पादौ प्रयोगक्षालयति, प्रयोग
प्राक्षालयत्. समीचीनं,
युधिष्ठिरः गुरोः पादौ प्राक्षालयत्.
प्राक्षालयत्, समीचीनं. हा, मधुसूदन मोदी अग्रे.
महोदय, तन्त्वात् ज्ञानं, सत्वात् ज्ञानं, ज्ञानं संयोगः
सञ्जायते,
सञ्जायते.
महोदय, जायते इति पदस्य धातुः जनी इति अस्ति 92 पेज् मध्ये, जा अपि सम्यक् वा?
मनसि आसीत् 92 मध्ये जा इति तत्र किं दत्तमस्ति? जनि इति, हा,
जायते, जनि एव अस्ति तत्र, आदेशः भवति, जा आदेशः भवति,
उपजन्ति
सूत्रमस्ति, यथा पिबति पा इति अस्ति, पिब यथा भवति तत्र, तदेव अत्र किमपि अस्ति, आदेशः भवति.
किन्तु झा इति धातोः रूपं किम् अस्ति अतः क्रियापदं झा?
जायते, जायते अस्ति,
जातः न भवति वा?
न न, जातः तु क्रियापदं नास्ति. ज जातः इति नामपदमस्ति इति धातोः
तदेव महोदय तदेव अस्ति जन् जनने अस्ति तत् एकनिमिषं तत् नत्वा द्वित्रा सन्ति अत्र जन् धातु एकनिमिषं जन् जनने प्रादुर्भूवे अस्ति तत् अस्तु फोर्त् गणे अत् जायते अस्ति तदेव अस्ति जन् धातु अस्ति जायते जायन्ते
अस्तु धन्यवादः
धन्यवादः
तत्र सूत्रमस्ति महोदय
समीचीनं वा इदानीं
महोदय जन् वा जनी वा
जन् जन् धातु जा जनोर्जा इति सूत्रमस्ति तत्र जा जनोः जा भवति इति सूत्रमस्ति जन् इत्ययोः जादेशः भवति क्षितिपरतः इति सूत्रमस्ति इति
जायते इति अस्ति तत्र रूपद्वयम् अस्ति महोदय जन् इति तृतीयगणे जजन्ति इति अस्ति
न जायते इति चतुर्थगणे
जायते इति भवति
ज्ञाजनेर्जा इति सूत्रमस्ति
अस्तु समीचीनम् अस्तु अस्तु महोदय इदानीं
महोदय सत्त्वात् ज्ञानं जायते सञ्जायते वर्तमानरूपं किं
सञ्जायते इति प्रायशः अस्ति
सञ्जायते वर्तमानं कालम् एकवचनं भूतकालं रूपं जायते अजायत्
जायते इति
अजायत
अजायत अजायत
इदानीं संयोगः
अजायत
संजायत अकारः तत्र
समजायत
समजायत अस्तु शुभभगिनी तत्र केवलम् अहम् अर्थं दृष्ट्वा सत्त्वात् ज्ञानं संजायते इति चिन्तयित्वा अहम् उक्तवान् जायते इति प्रायशः अस्ति इति हा तावदेव किन्तु जा इति अपि धातु अपि जन् अपि अथवा जनी तत्र द्रष्टव्यमस्ति किमर्थं तत्र रूपद्वयम् अस्ति इति अस्तु अग्रे
इदानीं महोदय सत्त्वात् इत्युक्ते किं सत्यं सत्त्वात् धन्यवादः
अस्तु तत्र अग्रे तत्र श्रीप्रिया भगिनी अग्रे अस्तु रघुपति
महोदय अर्जुनः कृष्णं प्रयोगः हाष् लट्लकारे अस्ति प्रयोगः भाषते लङ्लकाररूपम् अस्ति प्रयोगः अभाषत अर्जुनः कृष्णं प्राभाषत
प्राभाषत समीचीनं भगिनि अस्तु इदानीं रघुपति महोदय
अस्तु महोदय सज्जिति सज्ज आत्मनेपदी वा महोदय कर्म सज्जते वा सज्जते
सज्जति प्रायश
अस्तु
अस्तु योगरूढः कर्मसु अस्तु योगरूढः कर्मसु न अनु असज्जता इति भवति अनुयोग अन्वसज्जता योगरूढः कर्मसु न अन्वसज्जत इति भवति अनुयोग असज्जत
अन्व
असज्जत अन्वसज्जत इति भवति
हा अन्वसज्जत हा तत्र सज्ज सज्जति धातोः सज्जति
सज्ज परस्मै पदी
सज्जति
उभयपदी धातोः उभयपदी
ओ अस्तु अस्तु
भवादिगण परस्मै पदी एव
किन्तु तत्र यतः वयं दृष्टवन्तः खलु तत्र एतत् वयं एतम् अभ्यासं कृतवन्तः किन्तु तत्र तस्मिन्नेव पुटे यः नियमः अस्ति तं विस्मृतवन्तः खलु तत्र वयं चिन्तयामः किं तत्र यद् धातोः यदि धातु आत्मनेपदी धातुः अस्ति चेत् उपसर्गयोजनेन अपि तदेव भवति इति चिन्तितवन्तः खलु हा किन्तु तादृशः नास्ति इति अत्र उपरि नियमः अस्ति खलु गतवर्गे पठितवन्तः
अनुसज्जति इति सम्यक् महोदय अनुसज्जति
अनुसज्जति इति वा
न भगिनि 92 तमे पुटे अस्ति सज्ज इति धातुः सज्जते इति आत्मनेपदिरूपं दत्तमस्ति अत्र अनुसज्जते इति अस्ति
उभयपदी अस्ति महोदय सज्जति सज्जति अस्ति अतः भवति लङ्लकाररूपम् असज्जत इति भवति असज्जत् इति परस्मैपदी असज्जत इति आत्मनेपदिरूपम् अतः अन्वसज्जत अथवा अन्वसज्जत् रूपद्वयं
तत्र तत्र हा 92 पुटे आत्मनेपदी धातुरूपं दत्तमस्ति
अष्टाध्यायी मध्ये पठन्
किन्तु महोदय तत्र यः नियमः तत्र अस्मिन् पुटे अस्ति तद्दृष्ट्वा तत्र हा चिन्ता भवति तत्र आत्मनेपदी धातु उपसर्गस्य योजनेन परस्मैपदी धातुरूपं धरति अपि परस्मैपदी धातु उपसर्गस्य योजनेन आत्मनेपदी धातुरूपं धरति अपि प्राय किन्तु एतदपि भवितुमर्हति खलु उभयपदी धातु उपसर्गस्य योजनेन केवलम् एकमेव रूपं धरति इति तदपि भवितुमर्हति खलु अतः वयं न जानीमः तत्र रूपं उभयपदी उपसर्गस्य योजनेन उभयपदी एव तिष्ठति इति न जानीमः तस्य नियमः कः इति द्रष्टव्यमस्ति
महोदय अष्टाध्यायी धातु भवति परस्मैपदी परन्तु लट्लकार परस्मैपदम् आत्मनेपदरूपाणि सन्ति
किं
भगिनि अत्र उपसर्गयुक्तः अस्ति
उपसर्ग न
सत्यं भगिनि
उभयपदरूपाणि सन्ति
हा सत्यं भगिनि सत्यं तत्र तद् अङ्गीकरोमि सज्ज् इति तद् उभयपदी धातुः अस्ति किन्तु न जानीमः उभयपदी धातोः उपसर्गस्य योजनेन उभयपदी धातुः भवति इति तत्र कोऽपि नियमः अस्ति न वा इति न जानामि अतः तत्र किञ्चित् क्लेशः अस्ति अस्तु
द्वे अपि भवितुं शक्यते वा महोदय सज्जति अपि सज्जते सज्जति उपसर्गपूर्वक सज्जते किमस्ति तत्र
सज्जति
अन्वसज्जत अपि सज्जति सज्जते द्वे अपि अन्वसज्जत इति भवति वा
हा भगिनि एकवारं हा तत्र सज्जति सज्जते इति अस्ति खलु सज्जति सज्जते आत्मनिपदी धातुः अस्ति इदानीम् उपसर्ग स्थापयामः तत्र अनुसज्जति अनुसज्जते इति रूपद्वयम् अस्ति न वा इति न जानामि
अस्तु महोदय
तावदेव यदि रूपद्वयम्
उभयपदी वाक्यम् इत्युक्ते महोदय
वाक्यं
सेण्टेन्स् इत्युक्ते महोदय
कुत्र
योगारूढः कर्मसु न अनुसज्यते.
या योगे भवति योगारूढः कर्मसु न अनुसज्यते.
तत्र गीता भगवद्गीता गीतां द्रष्टव्यमस्ति भगिनि. तत्र योगारूढः कर्मसु कर्मसु इति प्रायः सप्तमी अस्ति.
सप्तमी योगारूढः अनुसज्यते अर्थः
अनुसज्यते इति तत्र सकारः अनुसज्यते तु अनुसज्यते इति दत्तं रूपं दत्तम्
अनुसज्यते इति रूपं भवति
महोदय. अनुसज्यते इत्युक्ते क्लिङ्ग् ओर् अधीर् इति अस्ति. तत्र योगारूढः
सर्वदा कर्म न अनुसज्यते इति योगं करोति वा कर्म केवलं योगाय एव करोति कर्म न करोति वा इति अर्थः वा न अनुसज्यते
यदि न त्यक्त्वा तदनन्तरं किञ्चित् सम्यक्
तत्र कर्मसु इत्युक्ते महोदय क्लिङ्गिङ्ग् कर्मे नास्ति किन्तु अटाच्मेण्ट्
कर्मसु अस्तु
न जानामि महोदय कर्मण्यवाधिकारस्ते इति स्मरामि तदेव वदामि
निष्काम
कर्म करणीयं किल अस्तु
कर्म समीचीनं महोदय मा फलेषु कदाचन सम्यक्
तत्र
किञ्चित् चिन्तनं
द्रष्टव्यं
षष्ठम अध्याये अस्ति महोदय
षष्ठम
अध्याये चतुर्थ क्षम्यता महोदय यदा हि इन्द्रियार्थेषु न कर्मसु शच्यते सर्वसङ्कल्पसन्न्यासि योगारूढस्तदुच्यते कर्मस्वच्युच्यते इति रूपं भवति महोदय कर्मसु अनुषच्यते इति अहं चिन्तयामि
कर्मस्वच्युज्यते इति
अनुषज्यते महोदय समानरूपं कर्मसु न अनुसज्यते कर्मस्वनुसज्यते अर्थमस्ति यदा यु हेव् टु रिनौन्स् आल् योर् मेटीरियल् डिसैर् क्षम्यतां महोदय आङ्ग्लभाषा वदामि
अस्तु किन्तु तत्र योगारूढः इति अस्ति खलु तत्र सम्बन्धः कः योगारूढः कर्मसु इति अस्ति
अर्थं किम् उक्तवती भगिनी अहं
न रीड् इङ्ग्लिश् मीनिङ्ग् महोदय आङ्ग्लभाषां वदामि महोदय योगारूढ आं महोदय षष्ठमध्याये चतुर्थ श्लोकः अस्ति महोदय सर्वसङ्कल्पसन्न्यासि योगारूढस्तदेच्यते अर्थः अस्ति सर्व सङ्कल्प यत् त्यजामि तत् तदेव योगारूढः इत्युक्ते योग अरूढ आरोहं
भवति योगारूढः
अस्तु तत्र एकवारम् आङ्ग्लभाषायाम् अर्थं वदतु भगिनि तदनन्तरम् अग्रे गच्छामः
रोड् ब्लाक् भवति अत्र
A person is said to be elevated in yoga when having renounced all material desires, he neither acts for sense gratification nor engages in fruitive activities.
Atra karma se chitte fruitful activity aiti.
I will read one more I'm looking at it. Yeah, just a different way of saying it here. In this one, when a man is not attached to sense objects or to actions, having renounced all thoughts, then he is said to have attuned to yoga.
इदानीं योगारूढः इति तत्र सम्बन्धः दत्तम् अस्तु
योगारूढः अस्ति तत्र
अस्तु हा इदानीम् अग्रे अन्तिमवाक्यं तत्र कः वदति तत्र गीताञ्जलि भगिनि
मूढाः देवं न प्रपद्यन्ते लट् रूपं मूढाः देवं न प्रापद्यन्त
हा प्रापद्यन्त समीचीनं भगिनि अस्तु समीचीनम् अस्तु इदानीं तत्र
पद्यते पद्यते इति आत्मनेपदीरूपं वा महोदय
दशनिमिषे
पूर्वं कृतवन्तः तत्र
पुटसङ्ख्या
96 मध्ये कोष्टकं यदस्ति तत्र अधोभागे निवर्तते इति अस्ति तस्य उपरि इति अस्ति अस्तु इदानीं तत्र किम् एतदेव बहु किमपि अस्ति तत्र किञ्चित् परिवर्तनं कुर्मः अद्य नो चेत्
महोदय भवतः ध्वनिः किञ्चित् मन्दम् अस्ति मम पार्श्वे अस्ति वा सर्वान् पार्श्वे अस्ति वा अहं न
इदानीं श्रूयते वा
श्रूयते
महोदय मन्दमस्ति वा न जानामि
मम पार्श्वे सर्वान् पार्श्वे कथमस्ति अहं न जानामि
इदानीं
सम्यक् महोदय सम्यक् एव
सम्यक् एव
तर्हि मम पार्श्वे एव किञ्चित्
अस्तु तर्हि अतः वयं किं कुर्मः तत्र किञ्चित् विषयान्तरं कुर्मः नो चेत् केवलम् उपसर्गः उपसर्गः इति एव भवति अतः तत्र अग्रे गच्छामः तदनन्तरं पुनः अग्रिमवर्गे वा अथवा पुनः आगत्य तत्र तव तु प्रत्यान्तरूपाणि अपि तद् 96-97 यत् अस्ति तत्र किञ्चित् कार्यमस्ति तद् अग्रे कुर्मः इदानीं मास्तु किञ्चित् परिवर्तनं कृत्वा पुनः आगच्छामः तत्र अस्तु तर्हि इदानीं तत्र अग्रिम अध्यायः तत्र द्वितीया विभक्तिः इति अस्ति तत् कुर्मः तत्र मधुसूदन महोदय पठति वा तत्र
योगक्षेमं वहाम्यहं
वहाम्यहं
कृष्णः अस्ति पाञ्चजन्यः अस्ति कृष्णः पाञ्चजन्यं धमति अत्र कृष्णः
अस्ति भीष्मः कृष्णः न द्वितीयवारं केवलम् अस्ति एव भीष्मः अस्ति सेना अस्ति
भीष्मः सेनां नयति कृष्णः अस्ति वंशी अस्ति कृष्णः वंशीं
वादयति तत्र कृष्णः पाञ्चजन्यः भीष्मः सेना वंशी इति तत्र विभक्ति का
प्रथमा विभक्ति
हा पाञ्चजन्यं सेनां वंशीम् इति तत्र द्वितीयाविभक्ति तत्र द्वितीयाविभक्ति नियमः किं तत्र नियमः कः तत्र कर्मपदस्य रूपं द्वितीयाविभक्त्यन्तं तत्र धमति इति क्रियापदमस्ति तस्य कर्मपदमस्ति पाञ्चजन्यम् अतः पाञ्चजन्यं द्वितीयाविभक्तिरूपम् अपि नयति तत्र सेनाम् इति अतः द्वितीयाविभक्तिरूपं वादयति कर्मपदमस्ति वंशीम् इति. अस्तु, इदानीं तत्र अग्रे हा शीतल भगिनी अग्रे पठतु भगिनी तत्र सारथिः इति.
महोदय, वंशी इत्युक्ते
हा अत्र अहं चिन्तितवान् अत्र वंशी सुधा भगिनी अस्ति
महोदय. वंशी इत्युक्ते यदि बालकृष्णः वादयति तत् वंशी, यदि यत्र बालकः कृष्णः नास्ति, यदि प्रौढः कृष्णः यत् वादयति तत् वेणु वदति महोदय.
वेणु इति, अस्तु, धन्यवादः भगिनी. अस्तु, अतः तत्र बालकृष्णः वंशीं वादयति इति वा? अस्तु, हा कृष्ण कृष्णः एव दत्तम् अस्ति, किन्तु बालकृष्णः
नास्ति.
अस्तु अस्तु, समीचीनं, धन्यवादः भगिनी. हा अस्तु, हा इदानीं हा शीतल भगिनी.
सारथिः रथं चालयति.
हा तत्र रथम् इति रक्तवर्णे दत्तमस्ति, विभक्ति का तत्र?
द्वितीयविभक्ति
इति. हा समीचीनं. हा अग्रिम वाक्यं तत्र श्रीप्रिया भगिनी.
सज्जनः गुणं पश्यति.
तत्र गुणम् इति
गुणम् अस्ति द्वितीया विभक्ति.
हा कर्मपदम्, अस्तु समीचीनं. हा रघुपति महोदय तृतीयं.
हा योगी इन्द्रियनिग्रहं करोति. इन्द्रियनिग्रहम् इति कर्मपदम् अस्ति.
कर्मपदम् अस्ति, अस्ति, अस्तु समीचीनम्. अस्तु इदानीं तत्र द्वितीयविभक्तिरूपस्य रूपं तत्र अग्रिमपुटे दत्तमस्ति इति मन्ये. हा तत्र अधोभागे एव दत्तमस्ति. हा अस्तु, तत्र अग्रे. हा इदानीं गीताञ्जलि भगिनी तत्र चतुर्थ.
क्रोधः सम्मोहं जनयति. अत्र सम्मोहं द्वितीयविभक्ति.
अस्तु, हा इदानीं क्रोधः तत्र
मोहः क्रोधं जनयति.
तदपि वयं श्रुतवन्तः, किन्तु तत्र क्रोधः
मोहम् इत्युक्ते डिलूजन् महोदय.
सम्मोहं तत्र एतत् वयं पूर्वमपि कृतवन्तः इति मन्ये. तत्र पञ्चमविभक्तिरूपे एतद् आसीत् खलु तत्
सम्मोहः क्रोधः जायते.
हा तत्र तादृशं रूपं दत्तमासीत् वा?
न महोदय, अहं
भगवद्गीतायां
पठितवती.
अस्तु, किन्तु अत्र किमर्थं विपरीतं दत्तमस्ति?
कन्फ्यूजन्
अपि अस्ति महोदय. कन्फ्यूजन् इल्यूजन् बिविल्डर्मेण्ट्.
अस्तु,
विपरीतार्थक नास्ति महोदय,
समानार्थक.
अस्तु, डिल्यूडिङ्ग् आल्.
अस्तु, तत्र पञ्चमीविभक्ति कुत्र कृतवन्तः वयं?
पञ्चमीविभक्ति.
अस्तु अस्तु अस्तु, तत् प्रायशः अग्रे भवति इति मन्ये. अस्तु अस्तु, हा तत्र गीताञ्जलि भगिनी इदानीं सम्मोहम् एकवचने अस्ति, तत्र द्विवचने बहुवचने रूपं किम्?
सम्मोहौ
इति. समीचीनम्, अस्तु अस्तु अस्तु. तर्हि शोभा भगिनी अग्रे.
एकलव्यः गुरोः मूर्तिम् अर्चति. तत्र मूर्तिं कर्मपदम् अस्ति द्वितीयविभक्ति.
तत्र मूर्तिः इति प्रायः भवति इति मन्ये, पुल्लिङ्गपदम् अस्ति इति मन्ये. तत्र मूर्तिः पुल्लिङ्गपदं वा अथवा स्त्रीलिङ्गपदं वा?
स्त्रीलिङ्ग् अत्र महोदय.
मतिशब्दवत्
मूर्ति स्त्रीलिङ्ग दत्तम्
स्त्रीलिङ्ग अस्ति हा अस्तु स्त्रीलिङ्गपदं तत्र भगिनी शुभ भगिनी अतः तत्र तत्र प्रायशः मूर्तिम् इति रूपम् अत्र प्रायशः न दत्तम् अस्ति तत्र किन्तु मतिशब्दवत् अस्ति हा इदानीं मास्तु तत्र मूर्तिमिति अग्रे 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 कुर्मः हा प्रथमतया सामान्य अकार आकार इति कुर्मः तदनन्तरम् एतत् आयाति हा अस्तु उषा भगिनि हा अग्रे
बुद्धिमान् क्रोधं त्यजति क्रोधं कर्मपदम् अस्ति
हा तत्र क्रोधम् इति पुल्लिङ्गपदं वा क्रोधः इति वा
क्रोधः क्रोधौ क्रोधं
पुल्लिङ्गपदं वा पुल्लिङ्ग एव अतः तत्र अधोभागे तत्र कोष्टकमस्ति खलु बालकः इति बालकं बालको बालकान् अतः क्रोधः तस्य रूपं किं भवति
क्रोधः क्रोधौ क्रोधाः
न न एकवचने किम् एकवचने किम्
न महोदय विभक्ति रूपं
द्वितीयविभक्ति द्वितीयविभक्ति रूपं
क्रोधं क्रोधौ
हा समीचीनं भगिनि अस्तु अरुणा भगिनि अग्रिमं गोपिका
गोपिकाः अक्रूरं पृच्छन्ति अक्रूरं द्वितीया एकवचनं
पुल्लिङ्गपदम् अक्रूरः
अक्रूरौ अक्रूरान्
पुंलिङ्ग एव महोदय अत्र विशेषणं दत्तम् अक्रूर इति विशेषणं किन्तु
अक्रूरमिति किमर्थम् अक्रूरमिति अक्रूरः सः तु
महोदय
हा विशेषणं नास्ति तत्र
अत्र अक्रूर विशेषणं दत्तम्
सत्यं हा अक्रूर इति विशेषणं भवितुम् अर्हति किन्तु अत्र अक्रूर इति कस्य नाम अस्ति
अस्तु महोदय
महाभारते भवति खलु अक्रूरः
अस्तु अस्तु
अक्रूरः इति प्रसिद्धः अस्ति कृष्णस्य भक्तः अक्रूरः अतः तत्र हा अक्रूर इति प्रायशः विशेषणम् अपि भवितुमर्हति किन्तु अत्र न शुभ भगिनी अग्रिमं
यः क्रूर नास्ति अक्रूरः
हा इति मन्ये
तदेव कृष्णः भक्तः
शुभ भगिनी अग्रे
कृष्णः भक्तिम् इच्छति भक्तिम् इति द्वितीयविभक्तिः
तत्र भक्तिः इति कीदृशपदं पुल्लिङ्गपदं स्त्रीलिङ्गं स्त्रीलिङ्गं मतिशब्दवत् समीचीनं भगिनि अस्तु इदानीं तत्र
मूर्तिः अपि स्त्रीलिङ्गमस्ति महोदय
सत्यं भगिनि सत्यं मम संशयः आसीत् किन्तु सत्यं मूर्तिः इति स्त्रीलिङ्गपदं मतिशब्दवत् अस्तु
महोदय मूर्तिः पुल्लिङ्गे अपि अस्ति स्त्रीलिङ्गे अपि अस्ति महोदय
अस्ति वा ओ अस्तु 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 अस्तु
मध्ये दत्तम् अस्ति
अस्तु किन्तु अत्र किं भवति अतः मूर्तिम् इति अस्ति चेत् तत्र
देव्याः मूर्ति अस्ति चेत् त्रिलिङ्गति
तादृश अस्ति न वा इति न जानामि किन्तु चिन्ता समीचीनचिन्तनमेव अस्ति अस्तु
सरस्वत्याः मूर्तिम् अर्चति
अस्तु इदानीं तत्र रूपं सामान्यरूपं दत्तमस्ति तद् एकवारं पश्यामः तत्र अरुणा भगिनी तत्र एकवारं पठति वा तत्र कोष्टकं बालकः बालिका अपि लेखनी इति यदस्ति
बालकः एकवचनं बालकं द्विवचनं बालकौ बहुवचनं बालकान् बालिका त्रिलिङ्गशब्दः आकारस्त्रीलिङ्ग एकवचनं बालिकां द्विवचनं बालिके बहुवचनं बालिकाः लेखनी लेखनीं लेखन्यौ लेखनीः
लेखनीः
नपुंसकलिङ्गशब्दः
न न लेखनी इति स्त्रीलिङ्गपदम् अस्ति नदी नदी शब्दवत् नदी शब्दवत् तत्र तत्र किमर्थं नपुंसकलिङ्गपदं न दत्तं तत्र नपुंसकलिङ्गस्य समानरूपम् अस्ति इति कृत्वा तत्र न दत्तम् अस्ति हा एक प्रथमविभक्तिरूपं द्वितीयविभक्तिरूपं नपुंसकलिङ्गे सर्वदा समानम् इति कृत्वा तत्र न दत्तं केवलं पुल्लिङ्गे अपि स्त्रीलिङ्गे बालकः पुल्लिङ्गे बालिका आकारान्तस्त्रीलिङ्गपदं लेखनी ईकारान्तस्त्रीलिङ्गपदं समीचीनम् अस्तु तत्र केवलं एक यद् कोष्टकम् अस्ति तद् पश्यामः तत्र तदेकवारं कुर्मः तत्र वंशीसुधा भगिनी तत्र छात्रः एकवचने छात्रः पाठः अस्ति हा तत्र छात्रः
पाठः पठति
छात्रौ
पाठौ
न न एक केवलम् एकवचने छात्रः
छात्रः पाठः पठति छात्रः पाठौ
न न पाठः पठति इति किं भवति पाठः इति रूपं तत्र विभक्ति किम्
छात्रः पाठं पठति
हा इति समीचीनम् अस्तु हा शीतल भगिनी द्विवचने छात्रः
आम् महोदय छात्रः पाठौ पठतः
न न न छात्रः एकवचने अस्ति पठति एव पाठौ इति
पाठौ पठति
हा छात्रः पाठौ पठति हा बालक बालकः बालकौ बालकाः बालकं बालकौ बालकान् तत्र द्विवचने
छात्रौ छात्रौ पाठौ पठतः
हा किन्तु अस्तु किन्तु हा सत्यं तदपि कर्तुं शक्नुमः समीचीनम् अस्तु हा समीचीनं भगिनि हा मधुसूदन महोदय बहुवचने
छात्रः पाठाः पठति
किन्तु पाठाः इति बहुवचने अस्ति
पठन्ति
न न न न न हा अस्तु अस्तु तत्र छात्रः पठति छात्रः पठति तत्र किमपि परिवर्तनं न भवति अस्तु मध्ये किमपि भवतु पठति एव अस्ति हा छात्रः पठति किं पठति
छात्रः पाठान् पठति
हा इति समीचीनं छात्रः छात्रः पाठं पठति पाठौ पठति छात्रः पाठान् पठति पठति समीचीनं हा श्रीप्रिया भगिनी अग्रे सम्पादकौ
सम्पादकौ पत्रिका प्रेषयतः
पत्रिका इति अस्ति तत्र रूपं किम् आवश्यकं
सम्पादकौ पत्रिकां प्रेषयतः
हा समीचीनं हा रघुपति महोदय द्विवचने
सम्पादकौ पत्रिके प्रेषयत
हा द्विवचने किमपि परिवर्तनं आवश्यकं नास्ति हा अस्तु गीताञ्जलि भगिनी हा बहुवचने
सम्पादकौ पत्रिकाः प्रेषयत अत्र अपि किमपि परिवर्तनं न भवति
हा न भवति हा समीचीनं हा अस्तु शोभा भगिनी इदानीं वयम् इति
वयं क्रीणीमः वयं घटीं क्रीणीमः
हा वयं घटीं क्रीणीमः समीचीनम् अरुणा भगिनी
महोदय वयं गच्छौ क्रीणीमः
हा गच्छौ एव भवति लेखनीं लेखन्यौ लेखनीः अतः घटीं गच्छौ घटीः घटीः इति द्विवचने न न द्विवचने द्वितीयविभक्तौ द्वितीयविभक्तौ हा हा शुभा भगिनी बहुवचने इदानीं
वयं घटीः क्रीणीमः
हा घटीः क्रीणीमः समीचीनं भगिनि अस्तु हा समीचीनम् अस्तु अस्तु तर्हि अत्र किञ्चित् नूतनविषय कृतवन्तः किञ्चित् एव किन्तु द्वितीयविभक्तिरूपं तद् अग्रिमवर्गे अपि कर्तुं शक्नुमः अपि तत्र 96-97 मध्ये यदस्ति तदपि समापयामः अस्तु तर्हि अन्यप्रश्नः अस्ति वा तत्र उपसर्गः अस्ति चेत् तत्र क्लेशः तु अस्ति, किन्तु सामान्यरूपं प्रथमतया ज्ञात्वा अग्रे गच्छामः. अस्तु
महोदय, एकः प्रश्नः अस्ति. पुटसङ्ख्या 96 मध्ये प्रपद्यते अस्ति किल, प्रयोगः अपद्यत. तत् पदस्य क्तवतु रूपम् अस्ति प्रयोगः पन्नवान्, प्रपन्नवान् अस्ति. किमर्थं भेदः अस्ति महोदय? पद्यते अस्ति किन्तु क्तवतु अस्ति पन्नवान्.
हा, तत् बहुत्र भवति भगिनि, तादृश रूपं क्तवतु रूपमपि लङ्लकाररूपस्य रूपस्य भेदः तु भवति. तत्र केवलं तत्र विषयः कः, अत्र क्तवतु रूपस्य निर्माणे विसर्ग अस्ति उपसर्ग अस्ति चेदपि तदेव रूपं, केवलम् उपसर्ग तस्य योजनं भवति. यदि पद्यते इति रूपस्य तव तु जानीमः, तत्र प्रपद्यते इति पदस्य अपि तव तु रूपं तव तदेव भवति, प्रयोगः पन्नवान् इति भवति. हा, एतादृश उदाहरणानि सन्ति भगिनि. तत्र
गच्छति अस्ति, गतवान् अस्ति, किन्तु अत्र भेदः अस्ति न, पन्नवान् रूपमेव भेदः.
एतत् भवति भगिनि, एतत् भवति तत्र पन्नवान् किमर्थम् इति चेत् तव तु तस्य निर्माणे अनेकानि सूत्राणि आवश्यकानि. तत्र प्रक्रिया अस्ति, बहु किमपि भवति तत्र, रूपं कीदृशं भवति इति.
मूलतः प्रयोग एतदेव महोदय, अतः पन्नवान् इति शब्दमस्ति, अतः सूत्रं.
सत्यं सत्यं सत्यं. हा, पन्नवान् इति पद्यते इति तस्य क्तवतु रूपम् अस्ति पन्नवान्. किन्तु महोदय, तत्र भगिन्याः प्रश्नः अस्ति
किमर्थं
पन्नवान्, हा किमर्थं हा इति. हा, तत्र हा प्रक्रिया अस्ति, तत्र प्रायशः अनेकाः सोपानाः अनेकानि सोपानानि सन्ति इति मन्ये तत्र. हा, तत्र अत्र भगिनि एकवारं वदामि, तत्र रूपं अत्र संस्कृतभाषायां रूपं किमर्थम् अस्ति इति तत्र उत्तरं तु अस्ति, किन्तु सर्वदा तत् उत्तरं सुलभं नास्ति. हा, प्रक्रिया अस्ति, पाणिनेः सूत्राणि सन्ति. हा, सूत्रस्य कस्मिन् सन्दर्भे कस्य सूत्रस्य उपयोगः भवति न भवति, बहु किमपि तत्र व्याकरणस्य विषयः अस्ति. एतत् सर्वं जानामि इति न चिन्तयतु, न जानामि, किन्तु प्रक्रिया तु बहु किमपि अस्ति. प्रथमतया केवलं रूपस्य ज्ञानं भवतु, अर्थस्य किञ्चित् अवगमनं भवतु, तदनन्तरं व्याकरणस्य तत्र सामान्यरूपस्य प्रक्रिया एव तत्र, तदपि बहु सुलभः इति न वक्तुं शक्नुमः. अपि विशेषरूपं तत्र बहु किमपि अस्ति, किन्तु प्रश्नः तु समीचीनः एव, किन्तु इदानीं उत्तरं न लभ्यते. अस्तु भगिनि, अस्तु. अन्यप्रश्नः अस्तु अस्तु, तर्हि विरमवर्गे मिलामः सर्वेभ्यः.
धन्यवादः महोदय.
नमस्कारः.
नमस्कारः.
नमस्कारः.